श्रीवेदव्यास उवाच ओम अस्य श्री विष्णोर्दिव्य सहस्रनाम स्तोत्रमाला मंत्रस्य श्री भगवान वेदव्यास ऋषि श्री कृष्ण परमात्मा देवता अनुष्टुप छंदः आत्मयो निस्वयं जातः इति बीजं देवकी नंदन स्रष्टेति शक्ति त्रिसामा सामगस्सामैति हृदयं शंख बृन्दकी चक्री इति कीलकं शारंग धन्वा गदाधरः इति अस्त्रं रथांग पाणि रक्षोभ्यः इति कवचं उद्भवः शोभनो देवः इति परमो मंत्रः श्री कृष्ण प्रीत्यर्थं सर्व पाप क्षयार्थे श्री पुरुषोत्तमाराधनेन विष्णोर्दिव्य सहस्रनाम स्तोत्र जपे वा श्रवणे वा विनियोगः अथ ध्यानम् ओम विश्वं विष्णुर्वषट्कारो भूत भव्य भवत् प्रभुः भूतकृद् भूत भृद् भावो भूतात्मा भूत भावनः ओम भूतात्मा परमात्मा च मुक्तानां परमागतिः अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ओम योगो योगविदां नेता प्रधान पुरुषेश्वरः नारसिंह वपुः श्रीमान् केशवः पुरुषोत्तमः ओम सर्वशर्वशिवस्थाणुर्भूतादिर्निधिरव्ययः संभवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ओम स्वयंभूशंभुरादित्यः पुष्कराक्षो महास्वनः अनादि निधनो धाता विधाता धातुरुत्तमः ओम अप्रमेयो ऋषिकेशः पद्मनाभो वरप्रभुः विश्वकर्ता मनुस्त्वष्टा स्थविष्ठस्थविरो ध्रुवः ओम अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतरदनः प्रभूतस्त्रिककुब्धाम पवित्रं मंगलं परम् ओम ईशान प्राणतः प्राणो ज्येष्ठश्रेष्ठः प्रजापतिः हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः
ओम ईश्वरो विक्रमी धन्वी मेधावी विक्रमक्रमः अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ओम सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ओम अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः वृषा कपिरमेयात्मा सर्वयोग विनिसृतः ओम वसुर्वसुमनः सत्यः समात्मा संवितः समः अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः
ओम रुद्रो बहुशिरा बभ्रुर् विश्वयोनिःशुचिश्रवाः अमृतशाश्वतस्थाणुर्वरारोहो महातपाः ओम सर्वगः सर्वविद्भानुर् विश्वक्सेनो जनार्दनः वेदो वेदविदौ व्यंगो वेदांगो वेदवित्कविः ओम लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः चतुरात्मा चतुर्व्यूह चतुर्दौष्ट्रश्चतुर्भुजः ओम भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ओम उपेन्द्रो वामनः प्रांशुः अमोघः शुचिरूर्जितः अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः ओम वेद्यो वैद्यः सदा योगी वीरः माधवो मधुः अतीन्द्रियो महामायो महोत्साहो महाबलः ओम महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः अनिर्देश वपुः श्रीमान् अमेयात्मा महाद्रिधृक् ओम महेश्वासो महीभर्ता श्रीनिवासः सताङ्गतिः अनिरुद्धः सुरानन्दो गोविन्दः गोविदाम्पतिः ओम मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः हिरण्यनाभस्तुतपः पद्मनाभ प्रजापति ओम अमृत्यु सर्वदृक् सिंह संधाता संधिमांसिरा अजो दुर्मर्षण शास्ता विश्रुतात्मा सुरारिह ओम गुरुर्गुरुतमो धाम सत्य सत्य पराक्रम निमिषो निमिषस्रग्वी वाचस्पतिरुदारधी ओम अग्रणीर्ग्रामणी श्रीमान न्यायो नेता समीरणः सहस्रमूर्धा विश्वात्मा सहस्राक्ष सहस्रपात
ओम आवर्तनो निवृत्तात्मा संवृत्त संप्रमर्दनः अह संवर्तको वन्निर रनिलो धरणीधर ओम सुप्रसार प्रसन्नात्मा विश्वदृग् विश्वभुग् विभु सत्कर्ता सत्कृत साधुर्जन्नुर्नारायणो नरः ओम असंख्येयो प्रमेयात्मा विशिष्ट शिष्टकृच्छुचिः सिद्धार्थ सिद्ध संकल्पः सिद्धिदः सिद्धिसाधनः ओम वृषाही वृषभो विष्णुर् वृषपर्वा वृषोदरः वर्धनो वर्धमानश्च विविक्तश्रुतिसागरः
ओम सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ओम ओजस्तेजो द्युतिधरः प्रकाशात्मा प्रतापनः रुद्ध स्पष्टाक्षरो मंत्र चंद्रांशुर्भास्करद्युतिः ओम अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः औषधं जगतः सेतुः सत्यधर्म पराक्रमः ओम उत्तारणो दुष्कृतिः पुण्यो दुःस्वप्ननाशनः वीरः रक्षणः संतो जीवनः पर्यवस्थितः ओम अनन्तरूपो नन्तश्रीर् जितमन्युर्भयापः चतुरस्रो गभीरात्मा विदिशो व्यादिशो दिशः ओम अनादिर्भूर्भुवो लक्ष्मी सुवीरो रुचिरांगदः जननो जनजन्मादिर् भीमो भीम पराक्रमः ओम आधार निलयो धाता पुष्पहासः प्रजागरः ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवःपणः ओम प्रमाणं प्राणनिलयः प्राणभृत् प्राणजीवनः तत्त्वं तत्त्वविदेकात्मा जन्म मृत्युजरातिगः ओम भूर्भुवस्वस्तरुस्तारः सविता प्रपितामह यज्ञो यज्ञपतिर्यज्वा यज्ञांगो यज्ञवान
ओम यज्ञभृत् यज्ञकृत् यज्ञी यज्ञभुग् यज्ञसाधनः यज्ञान्तकृत् यज्ञगुह्य मन्नमन्नार एव च ओम आत्मयोनि स्वयं जातो वैखानः सामगायनः देवकी नन्दनः स्रष्टा क्षितीशः पापनाशनः ओम शंखभृन्नन्दकी चक्री शार्ङ्गधन्वागदाधरः रथांगपाणिरक्षोभ्यः सर्वप्रहरणायुधः सर्वप्रहरणायुधः ओम नमः नमोस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुवाहवे सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटि युगधारिणे नमः
नमः कमलनाभाय नमस्ते जलशायिने नमस्ते केशवानन्त वासुदेव नमोस्तुते वासनाद् वासुदेवस्य वासितं भुवनत्रयं सर्वभूतनिवासोऽसि वासुदेव नमोस्तुते नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च जगद्धिताय कृष्णाय गोविन्दाय नमो नमः आकाशात् पतितं तोयं यथा गच्छति सागरं सर्वदेव नमस्कारः केशवं प्रति गच्छते इति श्रीमन्महाभारते श्रीविष्णुसहस्रनामस्तोत्रं सम्पूर्णं श्रीकृष्णार्पणमस्तु।